परमात्मं स्तव प्राप्तौ कुशलोऽस्मि न संशयः तथापि मे मनो तुष्टं भोगेषु रमते सदा परमात्मं स्तव प्राप्तौ कुशलोऽस्मि न संशयः तथापि मे मनो दुष्टं भोगेषु रमते सदा यदा यदा तु वैराग्यं भोगेभ्यश्च करोम्यहं तदैव मे मनोमूढं पुनर्भोगेषु गच्छति यदा यदा तु वैराग्यं भोगेभ्यश्च करोम्यहं तदैव मे मनोमूढं पुनर्भोगेषु गच्छति भोगान् भुक्त्वा मुदं याति मनो मे चञ्चलं प्रभो तव स्मृति यदा याति तदा याति बहिर्मुखं भोगान् भुक्त्वा मुदं याति मनो मे चञ्चलं प्रभो तव स्मृति यदा याति तदा याति बहिर्मुखम् अहं शास्त्रनिचयं चिन्तयामि समाहितः तथापि मे मनोमूढं त्यक्त्वा त्वां भोगमिच्छति प्रत्यहं शास्त्रनिचयं चिन्तयामि समाहितः तथापि मे मनोमूढं त्यक्त्वा त्वां भोगमिच्छति मोहौ मानमदौ तव ज्ञाना भवन्ति वै यदा बुद्धिपथं यासि यान्ति ते विलयं तदा शोकमोहौ मानमदौ तव ज्ञाना भवन्ति वै यदा बुद्धिपथं यासि यान्ति ते विलयं तदा कृपगुरु तथा नाथ त्वयि चित्तं स्थिरं यथा मम स्याज्ञानसंयुक्तं तव ध्यानपरायणं कृपां कुरु तथा नाथ त्वयि चित्तं स्थिरं यथा मम स्याज्ञानसंयुक्तं तव ध्यानपरायणम् ते विमूढोऽस्मि न पश्यामि हिताहितं संसारापारपाधोधौ पतितं मां समुद्धरः मायया ते विमूढोऽस्मि न पश्यामि हिताहितं संसारापारपाधोधौ पतितं मां समुद्धरः परमात्मं स्त्वयि सदा मम स्या निश्चला मतिः संसार दुःख गहनात्वं सदा रक्षको मम परमात्मं स्वयि सदा मम स्यान्निश्चला मतिः संसार दुःख गहनात्वं सदा रक्षको मम परात्मन इदं स्तोत्रं मोहविच्छेदकारकं ज्ञानदञ्च भवेन्नृणां योगानन्देन निर्मितं परात्मन इदं स्तोत्रं मोहविच्छेदकारकं ज्ञानदञ्च भवेन्नृणां योगानन्देन निर्मितम् इति श्रीयोगानन्दतीर्थविरचितं परमात्माष्टकं सम्पूर्णम् परमात्माष्टकं सम्पूर्णम्।